शलाकया चक्षुर्मीलितं येन तस्मै श्रीगुरवे वंशाकल्पतरुभ्यश्च कृपासिन्धुभ्यैव च पतितानां पावनेभ्यो वैष्णवेभ्यो नमः। नमो महावदन्याय कृष्णप्रेमप्रदाय कृष्णाय कृष्णचैतन्यं नाम्ने गौरत्विषये गुरवे गौरचन्द्राय राधिकायै तदाले कृष्णाय कृष्णभक्ताय तद्भक्ताय अङ्गश्यामलिं जटाभिरभितो मन्दीकृतेन्दीवरं जटं जागुदरोचसंविदवतङ्गपट्टम्बरस्य वृन्दारण्यनिवासिनम् राधाषण्डनिवेशितोज्ज्वलभुजं ध्यायेयं दामोदरं तवैवास्मि तवैवास्मि न जीवामि त्वया विना इति विग्रहे राधा।